గణపతి హవామహే కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణాం బ్రహ్మణస్పత ఆనశృణ్వన్నోతిభిః సేదసాదనం ప్రణో దేవీ సరస్వతీ వాజినీవతీ ధీరామవిత్రయవతో గణేశాయ నమః సరస్వత్యై నమః శ్రీగురుభ్యో నమః హరిః ఓం ఓం నమో భగవతే రుద్రాయ ఓం నమస్తే రుద్రమన్యవ ఉతోత ఇషవే నమః నమస్తే అస్తు ధన్వనే బాహుభ్యాముతతే నమః యాతయిషు శివతమా శివం బభోవతే ధనుః శివాశనవ్యాయాతవతయా నో రుద్రమృణయా యాతే రుద్ర శివా తనురఘోరా పాపకాశిని తయా నస్తను భాషంతమయా గిరిశంతాభిచాకశీ యామిషం గిరిశం దహస్తే బిభర్ష్యస్తవే శివాంగిరిత్రతాంకురువాహి గుంసీ పురుషం జగత్ శివేన వచసా త్వా గిరిశాచ్ఛావదామసి యథా నః సర్వమిజ్జగత యక్ష్మగుం సుమనా అసత్ అధ్యవోచదది వక్తా ప్రథమో దైవ్యోభిషక్ అహీగుశ్చ సర్వాజ్యం వయం సర్వాశ్చ యాతు ధాన్యః అసౌయస్తామ్రో అరుణ ఉత బభ్రస్సు మంగళః యే చేమాగుం రుద్రా అభితో దిక్షశ్రుతాః సహస్రశో వైశాగుం హేడహీమహే అసభ్యో వసత్పతి నీలగ్రీవో విలోహితః ఉతైనం గోపా అదృశన్నదృశన్నదహార్యః ఉతైనం విశ్వా భూతాని సదృష్టో మృడయాతినః నమో అస్తు నీలగ్రీవాయ సహస్రాక్షాయ మీడుషే అతో యే అస్య సత్వా నోహం తేభ్యో కరణ నమః ప్రముంచ ధన్వనస్త్వముభయోరాత్మియోర్జ్యా యాశ్చ దేహస్త ఇషవ పరాతా భగవో వవ అవతత్య ధనుస్త్వగుం సహస్రాక్షశతేషు ధే నిశీర్య శల్యానాముకా శివో నః సుమనా భవ విజ్యం ధనుః కపర్దినో విశల్యో బాణవాగుం ఉత అనేషన్నస్యేషవ ఆభురస్య నిషంగతిః యాతే హేతిర్మీడుష్టమహస్తే బభూవతే ధనుః తయాస్మాన్ విశ్వతస్త్వమయక్ష్మయా పరిభుజ నమస్తే అస్త్వాయుధాయానాతదాయ దృష్టవే ఉపాభ్యాముతతే నమో బాహుభ్యాం తవ ధన్వనే పరితే ధన్వనో హేతిరస్మాన్ వృణక్తు విశ్వతః అథోయ ఇషుదిస్తవారే అస్మన్నిదేహితం నమస్తే అత్తు భగవన్ విశ్వేశ్వరాయ మహాదేవాయ త్రయంబకాయ త్రిపురాంతకాయ త్రికాగ్నికాలాయ కాలాగ్నిరుద్రాయ నీలకంఠాయ మృత్యుంజయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః नमो हिरण्यबाहवे सेनाङ्गे दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्य पशूनां पतये नमो नमः स्वस्मिन् जलायत्वे शिवते पधीनां पतये नमो नमो बब्लुषाय व्याधिनेन्द्रानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्राय तथा विने क्षेत्राणां पतये नमो नमः सूताय हन्त्याय वनानां पतये नमो नमो रोहिताय स्तपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवत्कृतायौषधीनां पतये नमो नम उच्चैर्घोषाय क्रन्दयते पक्तीनां पतये नमो नम कृष्णवीता यथावते सत्वनां पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनां पतये नमो नमः ककुभाय निषङ्गिणे सेनानां पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते सायूनां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमः श्रृकाव्यभ्यो जिगातुं सद्भ्यो मुष्टतां पतये नमो नमो सिमद्भ्यो नक्तं चरद्य प्रकृन्दानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्जानां पतये नमो नम इषु मद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्य प्रतिरथानेभ्यश्च वो नमो नम आयच्छद्यो विसृजभ्यश्च वो नमो नमोऽस्य भ्यो वित्यभ्यश्च वो नमो नम आसीनेभ्य शयानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रभ्यश्च वो नमो नम तिष्ठद्भ्यो दावभ्यश्च वो नमो नम सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः नम आव्याधिनीभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुम्हतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रतेभ्यो रतेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यस्सेनानिभ्यश्च वो नमो नमः क्षत्रभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमः चक्षुभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च नमो नमो नम पुण्यस्ते एभ्यो निषादेभ्यश्च भो नमो नम यशोकृद्भ्यो धन्वकृद्भ्यश्च भो नमो नमो मृगयोभ्यश्वनेभ्यश्च भो नमो नम स्वभ्यश्वपतिभ्यश्च भो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिविष्टाय च नमो मीरुष्टवाय चेशुभते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च समृद्धने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाचिराय च नमः शीघ्र्याय च शेभ्याय च नमः ऊर्ध्याय च वत्सन्याय च नमः श्रोतस्याय च द्वेभ्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च पगल्भाय च नमो जगन्याय च बुध्नियाय च नमः सोऽज्ञाय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चापबिन्दते च नमो वन्मिने च वरूथिने च नमो विल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्टवे च प्रमृषाय च नमो द्रूताय च प्रहिताय च नमो निषङ्गिणे चेशुधिमते च नमः ईष्येशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः कार्त्याय च नीप्याय च नमः सोऽज्ञाय च सरस्याय च नमो नाद्याय च वैशन्दाय च नमः कोप्याय च वट्याय च नमो वश्याय च वश्याय च नमो मेघ्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वात्सव्याय च वात्सुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हरियते च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः तीर्त्याय च कोल्याय च नमः पार्याय च वार्याय च नमः ततरणाय चोत्तरणाय च नमः आतार्याय च लार्याय च नमः षष्प्याय च मेन्याय च नमः सिकत्याय च प्रभाक्याय च नमः हिरण्याय च प्रमत्याय च नमः केकुंशिलाय च क्षयणाय च नमः कवर्दिने च पुलस्तये च नमो गोष्याय च गृह्याय च नमः कल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पावुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ओर्ध्याय च सौर्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पगुरमानाय च विघ्नते च नमः आख्यदते च प्रख्यदते च नमो वक्किरिकेभ्यो देवानां हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रापे अन्धसत्वते दरिद्रन्नीललोहिता एषाम् पुरुषाणामेषाम् पशूनाम् माभिर्मारोमो येषाम् किञ्चनामत या ते रुद्र शिवा तनो शिवा विश्वाभेषजे शिवा रुद्रस्य भेषजे तया नो मृडजीवसे इमागुम् रुद्राय तवसे कपन्दिरे क्षयद्वेराय प्रवरामये मतिम् यथा दशमसद्विपदे चतुष्पदे विश्वम् पुष्टम् रामे अस्मिन्ननातुरम् मृडानो रुद्रोदनो मयस्कृते क्षयद्वेराय नमसा विधेमते यच्चम् जयोश्च मनुरायजे पिता तदश्यामतव रुद्रप्रणीतौ मानो महान्तमुतमानो अर्वकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्रलेशः मानस्तो केतन ये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रभावितो वधेर्हविष्मन्तो नमसा विधेमते आराते गोघ्र उत पूरुषग्ने क्षयद्वेराय सुन्नमस्मेते अस्तु रक्षा च नो अति च देव रोह्यदा च नः शर्म यच्च द्विवर्हाः स्तुहि श्रुतम् गत्त सदयुवानम् मृगन्न भीममुपहत्त्वमुग्रम् मृडाचरित्रेणुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेते विरक्तपरित्वेषस्य दुर्मविरगायो अवस्थिरा भगवद्भ्यस्तनश्वमेढस्तोकायतनयाय मृडया मेढुष्टमशिवतमशिवो न सुमना भव परमे वृक्ष आयुधम् निनाय कृत्यम् वसा न आचर पिनाकम् बिभ्रदागहे विकिरिद विलोदित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्मन्निव पन्तुताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशानो भगव पराचेनामुखाकृते सहस्राणि सहस्रशो ये रुद्राभिभूम्या तेषाकं सहस्रयो जने वधन्वानि तन्मसे अस्मिन्महत्यर्णवेन्दनिक्षे भव अधि नीलग्रीवाशितिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाशितिकण्ठादिवकुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्मिञ्जना नीलग्रीवा विलोहिताः ये भूतानामधिपतयो निशिकासः कपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु विपतो जनान् ये पताम् परिरक्षय ऐलव्रतायव्युदः ये तीर्थानि प्रचलन्ति शृगावन्तो निषङ्गिणः ये एतावन्तश्च भूयागुंसश्च दिशो रुद्रामितस्तिरे तेषागुम् सहस्रयो जने वधन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् येन्द्रिक्षे ये दिव्ये शामन्नम् वातो वर्षमिषवत्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रतिचेर्दशो दिचेर्दशोर्वास्तेभ्यो नमस्ते नो मृणयन्तु तेयम् द्विष्मो यश्च नो द्वे स्थितम् भोजम् ददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनान् मृत्योर्मुक्षेयमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधेषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्यो मर्त्यायहन्तवे तान् यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो वाविशान्तकः ेनाप्यायस्वा नमो रुद्राय विष्णवे मृत्यमे पाहि तमस्तु हि यस्वशस्व धन्वायो विश्वस्य क्षय दिवे सजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमो देवमसुरम् दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे ये विश्वभे सजो यगो शिवाभिमरुषणः ॐ शान्ति शान्ति शान्तिः शञ्च मे मयश्च मे प्रियम् च मेणु कामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमः च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे शीरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नाम यच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे अमित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे सुषा च मे सुदिनम् च मे ॐ शान्ति शांति शांति ओम अत्रिणात्वा कृमेहन्मी कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमीणा गुम्राजा अप्येषागुस्थपतिर्हतः अथो माताथो पिता अथो स्थूरा अथो क्षुद्राः अथो कृष्णा अथो श्वेताः अथो आशातिका हताः श्वेताभिः सह सर्वे हताः आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमय्यमस्य जम्भयोः आददामि तथा हि तत् खण्फण्म्रसे ॐ शान्ति शान्ति शान्तिः अग्निमीले पुरोहितं यज्ञस्य देवमृत्विजम् होतारं रत्नधातमम् ऋग्वेदात्मने सूर्यनारायण स्वामिने नमः इषेत्वोर्जेत्वा वायवस्थो देवो वस्सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे यजुर्वेदात्मने सूर्यनारायणस्वामिने नमः
अग्नाय हि वीतये घृणानो हव्यदातये
निहोता सत्सि बर्हिषे सामवेदात्मने सूर्यनारायण स्वामिने नमः शन्नो देवे रभिष्टयापो भवन्तु पीतये शय्योरभिस्रवन्दुनः अथर्ववेदात्मने सूर्यनारायण स्वामिने नमः गृहि सूर्य आदित्यो न प्रभावात्यक्षरम् मधुक्षरम् तद्रसम् सत्यम् वै तद्रसमापो ज्योतिरसोऽमृतम् ब्रह्मभूर्भुवः सुवरो छायासुवर्चलाम्बासमेतश्रीसूर्यनारायण स्वामिने नमः तरणिर्विश्वदर्शतो ज्योतिष्कृलति सूर्य विश्वमाभासि लोचनम् उपयामगृहीतोऽसि सूर्याय त्वा भ्राजस्वत एष ते योनिसूर्याय त्वा भ्राजस्वते छायासुवर्चलाम्ब समेत श्रीसूर्यनारायण स्वामिने नमः ॐ ह्राम् उद्यन्नद्यमित्रमहः मित्राय नमः ॐ ह्रीं आरोहन्नुत्तरान् दिवम् रवये नमः ॐ ह्रूं रुद्रोगम् मम सूर्या सूर्याय नमः ॐ ह्रैं हरिमाणम् च नाशया भारवे नमः ॐ ह्रौं शुकेषु मे हरिमाणम् खगाय नमः ॐ ह्रः रोपणाकासु दध्मसे पूष्णे नमः ॐ ह्राम् अथो हारिद्रवेषु मे हिरण्यगर्भाय नमः ॐ ह्रीं हरिमाणन्निदध्मसे मरीचये नमः
ॐ ह्रूं उदगादयमादित्यः आदित्याय नमः ॐ ह्रैं विश्वेन सहसा सह सवित्रे नमः ॐ ह्रौं द्विषन्तम् मम रन्धयन् अर्काय नमः ॐ ह्रः मो अहम् द्विषतो रथम् भास्कराय नमः ॐ ह्रां ह्रीं उद्यन्नद्यमित्रमहः आरोहन्नुत्तराम् दिवम् मित्ररविभ्याम् नमः ॐ ह्रूं ह्रैं रुद्रोगम् मम सूर्या हरिमाणम् च नाशया सूर्यभानुभ्याम् नमः ॐ ह्रौं ह्रः शुकेषु मे हरिमाणम् रूपणाकासु दद्मसे खगपूषभ्याम् नमः ॐ ह्रां ह्रीं अथो हारिद्रवेषु मे हरिमाणम् निदद्मसे हिरण्यगर्भमरीचिभ्याम् नमः ॐ ह्रूं ह्रैं उदगादयमादित्यः विश्वेन सहसा सह आदित्यसवितृभ्याम् नमः ॐ ह्रौं ह्रः द्विषन्तम् मम रन्धयन्न मो अहम् द्विषतो रथम् अर्कभास्कराभ्याम् नमः ॐ ह्रां ह्रीं ह्रूं ह्रैं उद्यन्नद्यमित्रमहः आरोहन्नुत्तराम् दिवम् रुद्रोगम् मम सूर्या हरिमाणम् च नाशया मित्ररविसूर्यभानुभ्यो नमः ॐ ह्रां ह्रीं शुकेषु मे हरिमाणम् रूपणाकासु दद्मसे अथो हारिद्रवेषु मे हरिमाणम् निदद्मसे खगपूषहिरण्यगर्भमरीचिभ्यो नमः ॐ ह्रूं ह्रैं ह्रौं ह्रः उदगादयमादित्यः विश्वेन सहसा सह द्विषन्तम् मम रन्धयन्न मो अहम् द्विषतो रथम् आदित्यसवित्रर्कभास्करभ्यो नमः ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः उद्यन्नद्यमित्रमहः आरोहन्नुत्तराम् दिवम् रुद्रोगम् मम सूर्या हरिमाणम् च नाशया शुकेषु मे हरिमाणम् रूपणाकासु दद्मसे मित्तरविसूर्यभानुखगपूषभ्यो नमः ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः अथो हारिद्रवेषु मे हरिमाणम् निदद्मसे उदगादयमादित्यः विश्वेन सहसा सह द्विषन्तम् मम रन्धयन्न मो अहम् द्विषतो रथम् हिरण्यगर्भमरीच्छादित्यसवित्रर्कभास्करेभ्यो नमः ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः उद्यन्नद्यमित्रमहः आरोहन्नुत्तराम् दिवम् रुद्रोगम् मम सूर्या हरिमाणम् च नाशया शुकेषु मे हरिमाणम् रूपणाकासु दद्मसे अथो हारिद्रवेषु मे हरिमाणम् निदद्मसे उदगादयमादित्यः विश्वेन सहसा सह द्विषन्तम् मम रन्धयन् मो अहम् द्विषतो रथम् मित्ररविसूर्यभानुखगपुषहिरण्यगर्भमरेच्छादित्रसवित्तर्कभास्करेभ्यो नमः आदित्यो वा एष एतन्मण्डलम् तपति तत्र चारुचस्तदृचामण्डलगुम् सरुचाम् लोकोदय एष एतस्मिन्मण्डलेऽर्चिर्दीप्यते तानि सामानि ससाम्नाम् लोकोदय एष एतस्मिन्मण्डलेऽर्चिषि पुरुषस्तानि यजोगुंसि स यजुषा मण्डलगुं स यजुषाम् लोकस्यैषा त्रयेव विद्या तपति य एषोऽन्तरादित्यैरण्मयः पुरुषः छाया सुवर्चलाम्बा समेतश्री सूर्यनारायण स्वामिने नमः आदित्यो वै तेज ओजो बलम् यशश्चक्षुश्रोत्रमात्मा मनो मन्युर्मनुर्मृत्युः सत्यो मित्रो वायुराकाश प्राणो लोकपाल कः किम् कम् तत्सत्यमन्नममृतो जीवो विश्वः कतमः स्वयम्भो ब्रह्मैतदमृत एष पुरुष एष भूतानामधिपतिर्ब्रह्मणः सायुज्यगुंस लोकतामाप्नोत्येतासामेव देवतानागुम् सायुज्यगुम् साष्टितागुम् समानलोकतामाप्नोति य एवम् वेदेत्युपनिषत् छाया सुवर्चलाम्ब समेत श्री सूर्यनारायण स्वामिने नमः ॐ शान्ति शान्ति शान्तिः ॐ सहना भवतु सहनौ भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः अथ पुरुषो ह वै नारायणो कामयत प्रजासृजे येते नारायणात् प्राणो जायते मनः सर्वेन्द्रियाणि च खम्वायुज्योतिराप पृथिवी विश्वस्य धारिणी नारायणात् ब्रह्मा जायते नारायणाद्रुद्रो जायते नारायणादिन्द्रो जायते नारायणात् प्रजापतय प्रजायन्ते नारायणाद्वादशादित्या रुद्रावसव सर्वाणि सछन्दागुंसे नारायणादेवसमुत्पद्यन्ते नारायणे प्रवर्तन्ते नारायणे प्रणीयन्ते ॐ अथ नित्यो नारायणः ब्रह्मा नारायणः शिवश्च नारायणः शक्रश्च नारायणः द्यावा पृथिव्यौ च नारायणः कालश्च नारायणः दिशश्च नारायणः ऊर्ध्वश्च नारायणः अधश्च नारायणः अन्तर्बहिश्च नारायणः नारायण एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् निष्कलो निरञ्जनो निर्विकल्पो निराख्यात शुद्धो देव एको नारायणः
నద్వితీయోస్తి కశ్చిద్ య ఏవం వేద స విష్ణురేవ భవతి స విష్ణురేవ భవతి ఓమిత్యగ్రే వ్యాహరేత్ నమైతి పశ్చాత్ నారాయణాయేత్యుపరిష్టాత్ ఓమిత్యేకాక్షరం నమ ఇతి ద్వే అక్షరే నారాయణాయేతి పంచాక్షరాణి ఏతద్వై నారాయణస్యాష్టాక్షరం పదం యోహ వై నారాయణస్యాష్టాక్షరం పదమధ్యేతే అనపబ్రువ సర్వమాయురేతే విందతే ప్రాజాపత్యగుం రాయస్పోషం గౌపత్యం తతోమృతత్వమశ్నుతే తతోమృతత్వమశ్నుత ఇతి య ఏవం వేద ప్రత్యగానందం బ్రహ్మ పురుషం ప్రణవస్వరూపం అకార ఉకారమకార ఇతి తానే కథా సమభరత్తదేతదోమితి యముక్త్వా ముచ్యతే యోగే జన్మ సంసార బంధనాద్ ఓం నమో నారాయణాయేతి మంత్రోపాసకః వైకుంఠ భువన లోకం గమిష్యతే తదిదం పదం పుండరీకం విజ్ఞానధనం తస్మాత్తదిదావన్మాత్రం బ్రహ్మణ్యో దేవకీ పుత్రో బ్రహ్మణ్యో మధుసూదనో సర్వభూతస్తమేకం నారాయణం కారణరూపమకార పరబ్రహ్మ ఏతదధర్వశిరోజోధీతే ప్రాతరధీయానో రాత్రికృతం పాపం నాశయతి సాయమధీయానో దివసకృతం పాపం నాశయతి మాద్యందినమాదిత్యాభిముఖో దీయాన పంచపాతకోపపాతకాత్ ప్రముచ్యతే సర్వవేదపారాయణ పుణ్యం లభతే నారాయణ సాయుజ్యమవాప్నోతి నారాయణ సాయుజ్యమవాప్నోతి య ఏవం వేద ఇత్యుపనిషత్ సహనావవతు సహనౌ భునక్తు సహ వీర్యం కరవావహై తేజస్వినావధీతమస్తు మా విద్విషావహై ఓం శాంతి 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 న కర్మణా న ప్రజయాధనేన త్యాగేనైకేన మృతత్వమానశుః పరేణనాకం నిహితం గుహాయాం విభ్రాజతే దత్యదయో విశంతే వేదాంత విజ్ఞాన సునిశ్చితార్థా సన్యాస యోగాద్యదయ శుద్ధ సత్వాః తే బ్రహ్మలోకే తు పరాంతకాలే పరామృతాత్ పరిముచ్యంతి సర్వే దగ్రం విపాపం పరమేశ్వభూతం యత్ పుండరీకం పురమధ్య సద్గుస్తం తత్రాపి దగ్రం గగనం విశోకస్తస్మిన్ యదంతస్తదుపాసితవ్యం యో వేదాదౌ స్వర ప్రోక్తో వేదాంతే చ ప్రతిష్ఠితః తస్య ప్రకృతిలీనస్య యః పరస్య మహేశ్వరః స్వస్తి ప్రజాభ్యః పరిపాలయంతా ज्ञायेन मार्गेण महीम् महिषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः।